कोटिप्रविस्तरम्
एकैकमक्षरम् पुंसा महापातकनाशनम् चरितं रघुनाथस्य शतकोटिप्रविस्तरम्
एकैकमक्षरम् पुंसां महापातक नाशनम् ध्यात्वा नीलोत्पल श्यामं रामं राजीव लोचनम्
जानकी लक्ष्मणोपेतं जटा मुकुट मंडितं
सासि तूड धनुर्बाण चरांतकम्
वलीलया जगत्रातुम् आविर्भूतमजं विभुम्
राम रक्षां पठेत् प्राज्ञः पापघ्नीं सर्वकामदां
चिरूमि
कौसल्येयो दृशौ पातु विश्वामित्र प्रियः श्रुति
प्राणं पातु मकत्राता मुखं सौमित्र वत्सलः
दिव्यां विद्यानि दीपातु कंठं भरत वंदितः हृदयं जाम दग्निजित्
मद्यं पातु खरध्वंसी नाभिं जाप वदाशयः
चरितं रघुनाथस्य शतकोटि प्रविस्तरम्
एकैकमक्षरम्
ध्यात्वा नीलोत्पल श्यामं रामं राजीव लोचनम्
जानकी लक्ष्मणोपेतं जटा मुकुट मंडितं
रक्षः कुल विनाशकृत्
जानुनी सेतु कृत पातु जंघे दश मुखांतकः
पादौ विभीषण शीदः पातु रामोऽखिलं वपुः चिरायुः सुखी पुत्री विजयी विनयी भवेत्
पाताल भूतल व्योम चारिणश्च चारिणः
तद्रष्टुमपि शक्तास्ते रक्षितं राम नामभिः
रामीति राम भद्रीति रामचंद्रीति वा स्मरन्
प्राप्यते पापर् भुक्तिं मुक्तिं च विन्दति यः कंठे धारये तस्य करस्थः सर्वसिद्धयः
वज्रपञ्चरनामिदं यो रामकवचं स्मरे
अव्याहताज्ञ सर्वत्र लभते जय कैकमक्षरं पुंसां महापातकनाशनम्
ध्यात्वानि लोत्पलश्यामं रामं राजीवलोचनं
जानकी लक्ष्मणो पेतं जटामुकुटमण्डितम् स्वप्ने राम रक्षामि मां हरः
तथा लिखितवान् प्रातः प्रबुद्धो बुध कौशिकः
आरामः कल्पवृक्षाणां विरामः सकलापदा
अभिराम
शिनौ दान्तौ तापसौ ब्रह्मचारिणौ
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ
चरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मता
रक्षः
सज्जधनुषा विशुस्पृश वक्षया शुगनिशङ्ग सङ्गिनौ
रक्षणाय मम राम लक्ष्मणावग्रतः पति सदैव गच्छता
अन्नदः कवची खड्गी चाप बाण धरो युवा चरितं रघुनाथस्य शतकोटिप्रविस्तरम्
एकैकमक्षरं पुंसां महापातकनाशनम्
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्
जानकी लक्ष्मण
Thank you. तथा पुरुषः पूर्णः कौशल्येयो रघुतमः
वेदांत वेद्यो यज्ञेशः पुराण पुरुषोत्तमः
जानकी वल्लभः श्रीमान् प्रमेय पराक्रमः
मदभक्तः श्रद्धयान्वितः
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः
रामं दुर्वादलशामं पद्माक्षं पीतवाससं
दुवन्ति नामभिर्दिव्यै ते संसारिणो नरः
रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुन्दरं
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् वंदे लोकाभिरामं रघुकुल तिलकं राघवं रावणारिं
रामाय रामभद्राय रामचन्द्राय वेदसे
रघुनाथाय नाथाय सीतायाः पतये नमः एकैकमक्षरं पुंसां महापातक नाशनम्
ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम्
जानकी लक्ष्मणो पीतं जटामुकुट मण्डितम्
वरिष्ठम् आत्मजम् वानरयुतम्
रघुनाथस्य शतकोटि प्रविस्तरम्
एकैकमक्षरम् पुंसा महापातकनाशनम्
ध्यात्वा नीलोत्पलश्यामम् रामं राजीवलोचनम्
जानकी लक्ष्मणोपेतम् जटामुकुट मंडितम्
निशाचर चमूरामाय तस्मै नमः
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम्
रामे चित्तलयः सदा भवतु मे भो राम मम उद्धर
राम रामे
नाम तत्तुल्यं राम नाम वरानने चरितं रघुनाथस्य शतकोटि प्रविस्तरम् एकैकमक्षरं पुंसां महापातक नाशनम् ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनं जानकी लक्ष्मणो पीतं जटामुकुटमण्डितम्।